सूर्योपनिषद प्रत्येक वैदिक सूक्त में एक लक्ष्य साथ छ अंग होय छे जेनु उच्चारण करवामां आवे छे। एना प्रथम ऋषि अथवा ते दृष्टा छे जेमणे मंत्रनो साक्षात्कार कर्यो छे। बीजू अंग छंद, त्रीजू प्रतिष्ठित देवता, चौथुं बीज, पांचमू शक्ति अने छठ्ठू कील छे। कील अर्थात एक स्त्रोत्र अथवा मंत्र जेनाथी सिद्धिनी अड़चन दूर थाय छे।
भद्रं कर्णे विश्रुडयामदेवाः भद्रं पश्ये वाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टवागुंसस्तनोभिः व्यशेमदेवहितं यदायुः स्वस्ति न इन्द्रो वृत्रश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातो ॐ शान्ति शान्ति शान्तिः।
हे देव, अमे कान थी शुभ सांभळीए, अमे यजन करता पोतानी आँखों थी शुभ जोईए, अमे स्वस्थ शरीर द्वारा तमारी आराधना करिए, अमे जीवन पर्यंत देव हितनुज आचरण करिए, कीर्तिमान इंद्र अमारु कल्याण करो, सर्वत्र प्रकाशित सूर्य अमारु भलू करो, दुष्टता ने दूर करनार गरुड़ अमारु भलू करो, बृहस्पति अमारु कल्याण करो, शरीर मन अने आत्मा शांत थाओ।
अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः ब्रह्मा ऋषिः गायत्री छन्दः आदित्यो देवता हंसः सोऽहमग्निनारायणयुक्तं बीजं हृल्लेखाशक्तिः यदादिसर्गसंयुक्तं कीलकं चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः।
हवे आपणे अथर्ववेद द्वारा सूर्य संबंधी मंत्रोनी व्याख्या करिए छीए। एना ऋषि ब्रह्मा छे, छंद गायत्री छे, देवता आदित्य सूर्य छे, बीज हंस छे, सोहम अग्नि अने नारायण छे, ऋल्लेखा शक्ति छे, कीलकम स्वर्ग अने आकाश छे। एनु लक्ष्य चारे पुरुषार्थ धर्म अर्थ काम अने मोक्ष प्राप्ति छे।
षट् स्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितं सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मत्रयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं यगेवं वेद स वै ब्राह्मणः।
सूर्य नारायण छह पांखड़ी वाला कमल दल पर બીજાક્ષરો સાથે સાત ઘોડાના રથ પર બેઠા છે. સુવર્ણ આભાવાળા તેમના ચાર હાથ છે. તેમના બે હાથમાં કમળ પુષ્પ છે. ત્રીજો હાથ અભય મુદ્રામાં છે અને ચોથો હાથ વરપ્રદાયક છે. જે કોઈ આ પ્રમાણે જાણે છે તે જ્ઞાતા છે, તે બ્રાહ્મણ છે.
ઓમ ભૂર્ભુવઃ તત્સવિતુર્વરેણ્યં ભર્ગો દેવસ્ય ધીમહિ ધિયો યો નઃ પ્રચોદયાત્. સૂર્ય આત્મા જગતસ્તસ્તુષ્ચ સૂર્યાદ્વૈકલ્વિમાનિ ભૂતાનિ જાયન્તે.
અમે તે ત્રણ લોકના સ્વામી પરબ્રહ્મના પ્રકાશનું ધ્યાન કરીએ છીએ. તેઓ અમારી બુદ્ધિને સત્યના માર્ગે લઈ જાય. સૂર્યને પ્રત્યક્ષ દેવતા પણ કહેવામાં આવે છે, કારણ કે તેઓ આંખથી જોઈ શકાય છે. સૂર્ય આ સૃષ્ટિનો આત્મા છે. સૂર્ય દ્વારા જ ચરાચરની સૃષ્ટિ ઉત્પન્ન થઈ છે. તેઓ જ યજ્ઞ અને જળવૃષ્ટિનું કારણ છે. તેઓ જ આ સંસારના પોષણકર્તા છે.
નમસ્તે આદિત્ય, તમેવ પ્રત્યક્ષં કર્મ કર્તાસે, તમેવ પ્રત્યક્ષં બ્રહ્માસે, તમેવ પ્રત્યક્ષં વિષ્ણુરસે, તમેવ પ્રત્યક્ષં રુદ્રોસે, તમેવ પ્રત્યક્ષ મૃગસે, તમેવ પ્રત્યક્ષં યજુરસે, તમેવ પ્રત્યક્ષં સામાસે, તમેવ પ્રત્યક્ષમથર્વાસે, તમેવ સર્વં સંદોસે. આદિત્યાદ્વાયુર્જાયતે, આદિત્યાદ્ભૂમિર્જાયતે, આદિત્યાદ્વાયુર્જાયતે, આદિત્યાજ્યોતિર્જાયતે, આદિત્યાદ્યોમદિશો જાયન્તે.
અમે સૂર્યદેવને નમસ્કાર કરીએ છીએ. તમે જ સર્વના કર્તા છો. આપ જ પ્રત્યક્ષ બ્રહ્મ, વિષ્ણુ અને શિવ છો. આપ જ સાચા અર્થમાં ઋગ્વેદ, યજુર્વેદ, સામવેદ અને અથર્વવેદ છો. આપ જ વેદોના છંદ છો. સર્વ પંચમહાભૂત, પૃથ્વી, જળ, વાયુ, અગ્નિ અને આકાશ તમારાથી જ ઉત્પન્ન થયા છે. તમે જ દિશાઓ પણ છો.
આદિત્યા દેવા જાયન્તે, આદિત્યા દ્વેદા જાયન્તે, આદિત્યો વા એષ એતન્મંડલં તપતે, અસાવાદિત્યો બ્રહ્મા, આદિત્યોન્તઃકરણમનોબુદ્ધિચિત્તાહંકારાઃ, આદિત્યો વૈ વ્યાનઃ સમાનો દાનો વાનઃ પ્રાણઃ, આદિત્યો વૈ શ્રોત્રત્વચક્ષુરસનઘ્રાણાઃ.
દરેક દેવતા સૂર્યથી જન્મે છે. દરેક વેદ સૂર્યથી ઉત્પન્ન થયા છે. સૂર્યથી જ આ ભુવનમંડળ પ્રકાશિત થાય છે. આદિત્ય જ બ્રહ્મ છે. આદિત્ય જ અંતઃકરણ, ચતુષ્ટ્ય, મન, बुद्धि, चित्त अने अहंकार छे। आदित्य ज पंच प्राण, प्राण अपान व्यान उदान अने समान छे। आदित्य ज पंचेन्द्रिय, त्वचा चक्षु श्रवण गंध रस अने स्पर्श छे।
आदित्यो वै वाक्पाणिपादपायोपस्थाः, आदित्यो वै शब्दस्पर्शरूपरसगन्धाः, आदित्यो वै वचनादानागमनविसर्गानन्दाः, आनन्दमयो विज्ञानमयो विज्ञानगण आदित्यः। नमो मित्राय भानवे मृत्योर्मापाहे धारिष्णवे विश्वहेतवे नमः। सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु।
आदित्यज पांच कर्मेंद्रिय, वाक पाणी पाठ उपस्थ अने गुप्तेंद्रिय छे। आदित्यज ज्ञानेंद्रिय, शब्द स्पर्श रूप रस अने गंध छे। आदित्यज ध्वनि मौन अने तेनो प्रवाह छे। आदित्यज आनंदमय विज्ञानमय अने आनंद घन छे। अमे मित्र अने भानुनी आराधना करीए छीए, तेओ मृत्यु थी अमारू रक्षण करो। विश्वना कारण अने प्रकाश ने अमारा नमस्कार। सूर्य थी ज सर्व प्राणी उत्पन्न थया छे अने तेमना द्वारा पालन पोषण पण थाय छे।
सूर्ये लयं प्राप्नुवन्ति यः सूर्यसोऽहमेव च, चक्षुर्न देवः सविता चक्षुर्न उत पर्वतः, चक्षुर्धाता ददातु नः। आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नः सूर्यप्रचोदयात्।
जे सूर्य थी सर्व उत्पन्न थाय छे अने जे सूर्य मां दरेक लय प्राप्त करे छे ते हूँ ज छूं। ते देव अमारी आँखों मां छे। ते देव अमने उत्तम दृष्टि प्रदान करो। अमे हजारों किरणों वाला सूर्यनु ध्यान करिए छीए। तेओ अमारी बुद्धि ने ज्ञान प्राप्त करवा तरफ प्रेरित करो।
सविता पुरस्ता सविता पश्चात्ता सवितोत्तरात्ता सविता धरात्ता सविता नः सुवतु सर्वदा दिगं सविता नो रासतां निर्गमायुः। ओमित्येकाक्षरं ब्रह्म, गणेति द्वे अक्षरे, सूर्य इत्यक्षरद्वयम्, आदित्य इति त्रीण्यक्षराणि, एतस्यैव सूर्यस्याष्टाक्षरो मनुः।
सूर्य अमारी सामे, सूर्य अमारी पाछळ, सूर्य अमारी ऊपर अने सूर्य अमारी नीचे दरेक दिशाओं में छे। तेओ अमने दीर्घायुष्य बक्षो। सूर्य अष्टाक्षरी मंत्र छे। एकाक्षर गृणी अने सूर्य बे बे अक्षर, आदित्य त्रण अक्षर छे। मंत्र आ प्रमाणे छे, गृणी सूर्यादित्योम्।
यः सदा हर हर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति। सूर्याभिमुखो जप्त्वा महाव्याधिभयात् प्रमुच्यते, अलक्ष्मीर्नश्यति, अभक्ष्यभक्षणात् पोतो भवति, अगम्यागमनात् पोतो भवति, पतितसम्भाषणात् पोतो भवति, असत्सम्भाषणात् पोतो भवति।
जे आ मंत्रणों जाप करे छे ते ब्रह्म स्वरूप थई जाए छे। जे सूर्य नी सामे मंत्र जाप करे छे ते मोटा विघ्न अने भय थी मुक्त थई जाए छे। तेमनी दरिद्रता दूर थई जाए छे। ते अभक्ष्य भोजन ना पाप थी पवित्र थई जाए छे। ते अयोग्य दिशा मा जई करेला पाप थी पण शुद्ध थई जाए छे। ते अयोग्य अने खराब बोलवाना दोष थी पण मुक्त थई जाय छे।
मध्याह्ने सूर्याभिमुख पठेत् सद्योत्पन्न पञ्चमहापादकात् प्रभुच्यते, सैषा सावित्री विद्यान्न किञ्चिदपि न कस्मैचित् प्रशंसयेत्। यगेतां महाभागप्रातः पठति स भाग्यवान् जायते, पशून् विन्दते, वेदार्थं लभते, त्रिकालमेतज्जप्त्वा क्रतशतफलमवाप्नोति। हस्तादित्ये जपति स महामृत्युन्तरति स महामृत्युन्तरति यगेवं वेद इत्युपनिषत्।
जे मध्याह्न मां मंत्र जाप करे छे ते पांच महापापोथी मुक्त थाय छे। आ मंत्र ने कोई अपात्र ने आपवो नहीं। जे आने प्रातः काल मां जपे छे ते परम धनवान बनी जाए छे। तेने वेदार्थ पण समझाई जाए छे। त्रिकाल आनो जाप करवाथी 100 यज्ञनु फल प्राप्त थाय छे। ते महामृत्यु पर पण विजय प्राप्त करी ले छे। आ वेद वाक्य छे।
कर्णे विश्वनयामदेवा भद्रं पश्ये माक्षभिर्गजत्रा स्थिरैरङ्गैस्तष्ट्रुवागुंसस्तनोभिः व्यशेम देवहितय्यदायुः। स्वस्ति न इन्द्रो वृद्धश्रवाः, स्वस्ति नः पूषा विश्ववेदाः, स्वस्ति नस्ताक्षो अरिष्ठनेमिः, स्वस्ति नो बृहस्पतिर्ददातो। ॐ शान्ति शान्ति शान्तिः।
हे देव, अमे कानथी शुभ सांभळीए, अमे यजन हवन करता पोतानी आँखोथी शुभ जोईए, अमे स्वस्थ शरीर द्वारा तमारी आराधना करिए, अमे जीवन पर्यंत देव हितनुज आचरण करिए, कीर्तिमान इंद्र अमारू कल्याण करो, सर्वत्र प्रकाशित सूर्य अमारू भलू हित करो, दुष्टता ने दूर करनार गरुड़ अमारू भलू करो, बृहस्पति अमारू कल्याण करो, शरीर मन अने आत्मा शांत थाओ।